नमस्कारः सर्वेभ्यः.
मङ्गलाचरणानि.
It's just opening, I'm sorry.
Manasi sthapa,
yes.
Sthapa yanti yanti sarve. Tera sarve.
Sargarambe mangalacharanani. Om Vagartha Viv Sampraktau Vagartha Pratipattaye जगतः पितरौ वन्दे पार्वती परमेश्वरौ. ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः.
धन्यवादः भगिनी. नमो नमः सर्वेभ्य.
नमस्कारः भगिनी. नमस्कारः सर्वेभ्य.
नमस्ते नमस्ते. क्षम्यताम्. अस्तु, पुटसङ्ख्या 22 अत्र अभ्यासपुस्तके.
भगिनी, हौ वुड् यु से गाड् ब्लेस् यु इन् संस्कृत?
नौ वी डोण्ट् यु नो इन् इण्डिया. It's an interesting tradition that we feel like we have to say something. See, in India, when people make all these body sounds, and nobody says anything. It's just part of the body, no?
Okay, in Gujarati, I don't know, maybe just, when somebody sneezes, we just say khamma, khamma. Like,
oh, khamma.
Matlab, you know, ke abhi thair jai, haan, matlab, khamma, khamma,
oh,
like take care of, thair jai.
Thaam jai. No, in my culture, I didn't grow up with anything, and in Sanskrit also, I don't know of anything yet. Anybody else know anything?
Yes, Bhagini, in Telugu also, we say, like, you know, Chiranjeevi.
Chiranjeevi, Chiranjeevi, Ashirvad too.
Yeah, whenever we sneeze, like, someone sneezes, we say, like, just
Chiranjeevi. Actually, there is a science behind it. I don't know how far it is true. Whenever somebody sneezes, actually, they say that the heartbeat stops for a second.
For 1 second of time, yes, Mahadeya.
So, that much amount of longevity the person achieves, they say that.
Keep sneezing, then what?
Chiranjeevi.
even I've heard something similar, that all the organs, for that smallest amount of time, they just stop and start. So, it's like a new life. That person had explained
that,
like that. So, that's why we say God bless you.
Yeah, in Tamil we
so God should protect at that point of times, because all the organs are shutting down, and so that second of time God should protect us. So that's the reason behind, I think.
But before that it restarts, no, that's why.
Yeah, that's the thing. Yeah, it's interesting. But usually, you know, like in India, in our, at least that I saw everywhere around me, nowhere amongst or any of my friends or relatives, you know, like any body noise comes, like belly is making sound, burp is coming, you know, a fart is coming, all these sounds coming, nobody sort of pays attention. At least that's how I grew up. It's just part of our body, you know, talking to ourselves. Otherwise, here I noticed, like I was with little children, 3-4 year old children also, you know, if a small sneeze, small burp comes, or a small, you know, something, some noise comes from the body, excuse me. So it's kind of a cultural thing here. But in our culture, there's nothing to, and the other thing I notice is, with this excuse me comes this culture also of trying to prevent it from happening, trying to be less noisy, trying to stop your body from talking.
Yes, Bhagini, I'm sorry to interrupt, but they also stop their yawns. That is another big thing I had read, that you should not stop from yourself from yawning. They do it by holding the jaws tightly together. So in a corporate environment or something, it looks disrespectful if you're yawning in a meeting or something. But it is a natural body process which should happen, basically.
Yeah, so many natural things are there, and somehow a layer of pretense comes. You know, say you are really sleepy or tired in a meeting. I mean, it should not be hidden, you know. But living in a land of consumerism, everything is about, you know, if consumerism and sales is the role of humanity, then all of these pretenses will have a role in it. So in our culture, we simply look and from our heart, maybe we give, you know, blessings and energy and positivity, and that's it. I think that's all. Otherwise, it becomes it becomes a scene, you know. Suddenly, 5 people are saying, you know, if I'm sneezing in a classroom, 20 people are saying, oh, God bless, you know. It's kind of I don't know. Culturally, I think I'm new to it. In my culture, I grew up with none of any of this. Nobody. In fact, they would, if it was too much, then somebody would say, oh, you know, have you tried this medicine? Have you tried to relieve yourself? Have you tried to go and rest? Which is what needs to happen, really. But one or two, they just kind of, Mama would just look at us and just, you know, we could see that she's hoping that everything's okay, and that's all.
Hi there.
So, Bhagini wanted to ask you, what is the meaning of Bhavitum Arhati?
Possible. Bhavitum mane hone me, Arhati, ability. होने की अबिलिटी होने की संभावना होने का कैसे बोलेंगे हिंदी में क्या ये संभव है क्या ये ठीक है इस टाइप का क्या ये होता है क्या ऐसा होता है भवितुम इज अ तुमुन प्रत्यय सो एनी किमपि धातु अस्ति तुमुन प्रत्यय अस्ति चेत् अर्थः तु उसको करना जैसे पढ़ाई करना पठितुम लेखितुम सो दिस तुमुन कम्स एंड तुमुन प्रत्यय हैज दैट थिंग सो भवितुम इज होना अर्हति अर्हति you can look up arhati actually. क्या देता है उसमें ओपन संस्कृत में देखिए अर्हति be worthy of, claim, to be able, है ना verb one. Hru, I think. Hru is the धातु अस्ति hru.
मैंने गूगल पे एक साथ सर्च किया था तो एक आइडिया आया था बट आई जस्ट वांटेड टू बी मोर मतलब इन पर्टिकुलर व्हाट डज इट मीन दैट्स व्हाई आई आस्क्ड हियर इन द क्लास ये जो शुरू है ना नए क्लासेस वो सुना तो उसमें बार बार ये आया था तो मुझे एज इट इज एवरीथिंग वॉज गोइंग अ लिटिल अबाउट द हेड उसमें ये बार बार आया इसीलिए
कौन सी क्लास में शुरू किया आपने
जो संडे को है सुब्रमण्यम महोदय का तो उनका मैंने लास्ट क्लास का सुना रिकॉर्डिंग और इस क्लास का लाइव अटेंड किया और फ्राइडे को जो लक्ष्मी भगिनी का क्लास हुआ वो भी अटेंड किया था लाइव तो उसमें मैंने देखा आप भी जुड़े थे महेश महोदय भी थे सुधा भगिनी भी थे
तो सुब्रमण्य महोदय क्या पढ़ा रहे सेम व्याकरण
सेम हाँ उन्होंने भी पहले 5 कवर किए बट ये लक्ष्मी भगिनी ने भी एक बार बोला था और महोदय ने भी 2-3 बार यूज किया अपने क्लास में इसीलिए आई वांटेड टू आस्क यू के क्या मीनिंग होता है
नहीं बहुत अच्छा वेरी उत्तम दैट ऑल ऑफ यू आर इन द क्लास आई डिड नॉट नो वेरी नाइस टू हियर कौन कौन है उसमें सब लोग है ऑलमोस्ट एवरीबॉडी फ्रॉम आवर क्लास
फ्राइडे लक्ष्मी भगिनी
You are in it?
No, I am not attending any class, Bhagini. Except yours.
What you can do, Bhagini, is simply attend. Simply you can listen. You join it and simply you listen. Mm-hmm. Subramanya Mahadeva had how many participants?
What day it is, Bhagini? It is on?
Around
80.
80, huh? Kavita Bhagini, will you share all this information with Sailaja Bhagini? All of the classes? And then email,
sure,
or something? And then Sailaja Bhagini, at least you should try to listen. You may not want to, and you'll pick up some things. That's how I also start. The more you allow your ears to hear, the more you will have the ability to grasp. It will increase your capacity. That is why. And don't expect yourself to understand everything. Don't get flustered that you are not understanding. It's okay. All the teachers, actually, first class, they gave an overview, which means if you are lost, you are totally lost. Because you are thinking, what happened, now what happened, then what happened, I don't know how it happened, how did this happen? It's not about how it happened. They are simply saying, this is what happens. This is what happens. It's like a yogi comes to class first day and he does these amazing, you know, yogi kriyas. And you're like, how, I don't even know how to sit in Padmasana. If you start thinking like that, then you'll be flustered and you won't be able to grasp whatever they are trying to say. So just enjoy, just listen. Try to write down a few things, whatever comes to you, like Kavita Bhagini wrote down what she didn't understand, what you do under, whatever it is. You just start. That's how it started. That's how I started. I'm telling you, the only word I knew was Namaste. And I entered all these.
Sure, Bhagini, I'll try to attend it. Kavita Bhagini, can you please share the details in our group, Bhagini? The teachers' classes?
Sure, Bhagini.
Dhanyavada, Bhagini. Thank you.
Jarur, you must attend. Anything you can attend, you must attend. Astu. Adhya, Puta Sankhya, Dvavimshativa, Abhyasa Pustake, 4.3, Hraswa Iva. Adhya?
Aap, Bhagini.
Astu. Papaji Pranam. अस्तु हा सुधा भगिनी भवती एव आरम्भं करोतु भगिनी
आं भगिनी बहुवचनरूपाणि लिखतु इति लोट् लकारः प्रथमपुरुष एकवचन क्रियापदं सकर्मकक्रियापदम् अस्ति
धातु किम्
धातु इति लिक् धातु
लिक्
धातु परस्मैपदी तुदादिगणः
तुदादिगणः उत्तमं
बहुवचनरूपाणि इति नपुंसकलिङ्ग द्वितीयविभक्ति बहुवचनपदं कर्मपदम् अस्ति
उत्तमं करोतु भगिनि
अहं खादामि यथा अहं खादामि वयं खादामः आवां खादावः
आवां खादावः अग्रिमं करोतु
अहं
खादामि इति धातुविषये किमपि जानाति वा
खादामि खाद् धातु सकर्मकधातु
सकर्मकधातु हा गण किं
गण खादामि भुआदिगण
हा भुआदिगण अर्थः कः कोऽपि वदतु
ट्वीट्
न संस्कृतभाषायां वदतु भगिनि
संस्कृतमित्तु नी तथा खादामि का न मुझे ऐसा लगा
का धातु धातु अर्थ का धातु भक्षणे किमर्थम अहं पृच्छामि धातुतः एकं धातु एकम् अर्थ भवति अस्ति किन्तु क्रियापदं निर्मातुं प्रियाकरणे सर्वदा तु न किन्तु कदा कदा अर्थपरिवर्तनम् अपि भवति इत्युक्ते किं धातु धातु तु एकम् अस्ति तस्य अर्थः अस्ति अत्र किं खादेकं धातु अस्ति भक्षणे खाद् धातुतः अर्थ आयाति भक्षणे इति किन्तु कदापि धातु परिवर्तनं भूत्वा किमर्थं परिवर्तनं भूत्वा क्रियापदं निर्माणं यदा वयं कुर्मः तेन कदापि किमपि परिवर्तनम् अभवत् तस्य कारणेन कदापि अर्थपरिवर्तनम् अपि भवति इति अहं वदामि किञ्चित् अवगतं वा महेश महोदय किं वदामि अहम्
आं भगिनि क्रियापदं क्रियापदके निर्माणके समयमे जो मूल जो जो पद होता है उससे जो फाइनल रूप जो लेता है उसमें हमको बहुत मदद मिलती है अगर हमको मूल धातु का अगर हमको उसका मतलब जानते हैं तो
हाँ तत्तु सत्यम किंतु अहम एकम अन्य वदामि अपि तत् किम कोपि अवगतं वा अस्तु पुनः
किसी का शब्द को परिवर्तन किया तो हमको अर्थ मिलता है ऐसा
अर्थ परिवर्तनम अपि भवति कदापि इति अहं वदामि क्रियापदं निर्मा यद् किमपि अन्तिमपदं किं क्रियापदं दीप्षिका भगिनी पापाजी प्रणाम
नमस्कार भगिनी क्षम्यताम्
न चिन्ता मास्तु द्वाविंशतिः पुटसङ्ख्या अभ्यासपुस्तके 4.3 ह्रस्व इकार तद् आरम्भं कुर्मः अत्र अस्तु अहम् एकं किं वदामि अत्र तु खाद् अस्ति किन्तु कदापि क्रियापदम् एकं कीदृशपदं धातुतः पदं यत् पदं यः पदं धातुतः आयाति क्रियापदम् अस्ति धातु धातोः एकम् अर्थः अस्ति किमपि धातु स्वीकृत्य तस्य धातोः किमपि एकम् अर्थः अस्ति किन्तु उदाहरणार्थे एकं वदामि इत्युक्ते एकनिमिष हृ धातु अस्ति एकनिमिष हृ एकं धातु अस्ति हृ इत्युक्ते हरणे अस्ति उभयपदी धातु अस्ति हृ एकं धातु अस्ति अर्थः किम् हरणे किन्तु कदापि तस्य क्रियापदं निर्मातुं यदा वयं कुर्मः किमपि अन्य अर्थः अपि भवितुम् अर्हति
यानी आप बोल रहे हैं कि हृ धातु जैसे एग्जांपल में मूल धातु से अगर हम क्रियापद बनाते हैं तो उसका अन्य मतलब होने का चांसेस है.
हाँ तदेव अहम वदामि महोदय. तेन किमपि प्रक्रिया भवति तेन अर्थ परिवर्तनं भवति. सर्वदा तु यदा अत्र हृ उभयपदी अस्ति किन्तु किमपि धातु यदि परस्मैपदी अस्ति परिवर्तनं भूत्वा क्रियापदस्य निर्मातुं प्रक्रियां यदा वयं कुर्मः कदापि उपसर्ग आयाति कदापि किमपि अन्य सूत्र सूत्रेण किमपि परिवर्तनं भवति बहु क्रियाणि भवन्ति तत्र. कदापि अर्थपरिवर्तनम् अपि भवति इति अहं वदामि. सो बेस्ट् टु नो द धातु एण्ड् रीड् वन् टैम् द अर्थ. Just slowly entering in your mind what is happening. And sometimes you will find ki hru dhatu ka jo naya pariharati, apaharati, totally different meaning. Sometimes they will also change their atmanepadi to parasmaipadi, parasmaipadi to atmanepadi. Also all of these things can happen. Don't assume ek bar ki ye to yahan pe parasmaipadi likha hai, always it will be like that. Generally it will be like that. Kintu bahu kimapi parivartanam bhavitum arhati tatra. So ek bar pad lene ka bas uska beej dal diya aapne fir usko kai bar dekho aap paudha aap dalte hain usme se ek dali ekdam uske lal phool nikalte hain aur baki daliyon ke neele phool nikalte hain. Sometimes that happens in nature also. Sometimes we can graft it and make the changes. So that is the prakriya also for the making of a padas. Astu. Kha dhatu ta. Uttamam bhagini. Agrimam. Sailaja bhagini karotu. Asti va. Sailaja bhagini.
आं भगिनि आम्
अग्रिमं पठतु भगिनि.
अहं हसामि. अहम् इति पदं सर्वनामपदम् उत्तमपुरुष एकवचनपदम् अस्ति. हसामि प्रथमपुरुषः अस्ति.
बहुवचन प्रथमपुरुष अस्ति वा? प्रथमपुरुष इत्युक्ते किं भगिनि एकवारं स्मारयतु. प्रथमपुरुष
सारी भगिनि
न प्रथमपुरुष इत्युक्ते किं
प्रथमपुरुष
स्मारयतु.
इट् इस् यूस् फार् सः सा एण्ड् ते भगिनि. द क्रियापदं यूस्ड् फार् सः सा एण्ड् ते. That is Prathamapurusha Shabdha Asti.
Haan, ityukte aham api tvam vihaya anya kopi asti chet. Aham api tvam vihaya. Vihaya ityukte kim? Without. Except. Except I and tvam. Aham and tvam.
Yes, Pati.
Anya kopi asti
chet. I and you. Yes,
not you. You mein bhavan bhi aata hai na. You have to be careful. Tvam eva. Aham api tvam vihaya anya kopi asti chet prathama purusha svikaroti. Avagata va?
आं भगिनि, उत्तमपुरुष शब्दः हसामि इति शब्दः उत्तमपुरुषः शब्दः अस्ति.
कीदृशशब्दः अत्र? कीदृशशब्दः?
उत्तम
पुरुष
क्रिया. अहं हसामि पुरुषक्रियापदम्.
उत्तमपुरुषक्रियापदं उत्तमपुरुषरूपं. वचनं किम्?
वचनम् एकवचन. एकवचनं
एकवचन अस्तु. द्विवचनमस्ति चेत्?
द्विवचनमस्ति चेत् आवाम् आवां हसामः हसावः. बहुवचनम् अस्ति चेत् वयं वयं हसामः.
वयं हसामः. उत्तमम् उत्तमं. धातुविषये किं किमपि जानाति वा? अर्थः कः? कीदृशधातु?
अहं भगिनि जस्ट् गिव् मी वन् मिनिट् अल् चेक् इन् द अष्टाध्यायी एण्ड् लिट्.
कीदृशधातु?
असामि.
I mean, I don't know whether, I mean, the website for India says it has to be a PCR test, but I thought the rapid test would be an antigen test. I don't know whether it's...
One minute, Bhagani.
Aham ekam vadami. Ekam. सीता जलं हरति. हृधातु हृधातु विषये किमपि अन्य वदामि. सीता जलं हरति इत्युक्ते किं? सीता पानी लेके जाती है, पानी लेके जा रही है. हरति. भीमः दुर्योधनं प्रहरति. प्रहरति इत्युक्ते किं?
वार करता है.
सा पुण्यम् आहरति इत्युक्ते किं महोदय?
चुराके लेके जाता है.
आहरति पुण्यम् आहरति इत्युक्ते अत्र दत्तं पुण्यं लेता है.
लेता है. अच्छा. अपहरति चुराता है.
अपना आहरति महोदय.
आहरति लेता है, अपहरति चुराता है. लेना.
आहरति. रामः रावणं संहरति.
संहरति मारता है.
सर्वे चंद्रिकायां विहरन्ति.
घूमता है.
घूमते हैं.
एंजॉय आनंद लेना. रिमेम्बर वी डिड यस्टरडे विहारे.
विहारे
आनंद लेता है. उत्तमम. गुरुः शिष्यं संशयं परिहरति. संशयं परिहरति
निवारण करता है. निवारण करता है.
डाउट सॉल्व कर देते हैं.
हाँ. परिहरति अत्र तो मार देता है, खत्म कर देते हैं.
खत्म
करना. परिहरति. सो हृ धातु, सी हाउ मेनी मीनिंग्स इट हैज टेकन.
So the original form, Bhagini?
हाँ, original तो हरति, किंतु अत्र किमपि उपसर्ग आयाति चेत्.
No, sorry, it is a धातु, a cleaned form you said, no, Bhagini, this is what called? Hrdhatu is, so it has synonyms like so many meanings.
No.
For that धातु.
No, Bhagini, किम वदामि अहम्, कोई भी धातु होता है, धातु का एक अर्थ होता है. इसीलिए मैं आपसे बोलती हूँ बार बार, इसको जब भी धातु मिले उसको धातु ढूंढो और उसका एक बार अर्थ पढ़ो. तो उसका एक अर्थ होता है, किंतु वो अर्थ जब क्रियापदम बनता है उसमें बदलाव आ सकता है, संभावना रहती है. कभी कभी उपसर्ग आने से, कभी कभी दूसरी क्रियाओं से भी उसका अर्थ में परिवर्तन हो जाता है. लेकिन एक बार वो शुरू वाला अर्थ कहाँ से आया, जब शुरू का पता चलेगा तब तो उसका परिवर्तन हम लोग समझेंगे ना. अभी हमको यही नहीं पता कि वो पेड़ है कि वो भालू है. तो धूप में कैसा लगता है उसको? अरे वो है क्या? पहले पता तो चले भालू है कि पेड़ है. देन यू विल डिसाइड ना. तो इनिशियली इट इज ऑलवेज अ गुड आइडिया, शुरू में कोई भी धातु आए quickly you have your ashtadhyayi and you try to look it up. Ek baar pad lo, wo uska beej apne man mein dal diya. Lekin ye yaad rakhna ki baad mein wo badalne ko ya aap danda leke nahi marenge ki mere ko to ye padhne mein aaya tha, abhi kaise badal diya karke. ये मैं आपको सिखा रही हूँ, बता रही हूँ एक बार. That's all. This is in our प्रवेश पुस्तक महोदय. अस्तु
हस्तु आई थॉट हियर भगिनी.
हाँ वदतु भगिनी.
हसामि इति धातु रूपम हस वादिगणः परस्मैपदि अकर्मकः क्रियः लट् लकारः शब्दः उत्तमपुरुषः एकवचनं शब्दः.
अर्थः कः भगिनि?
हस् इति शब्दः इस् टु टु लाफ् भगिनि.
न न, संस्कृतभाषायां पठतु भगिनि.
हसने
हसने
हस् हसे हसने.
न न न, अर्थः भगिनि केवल हसने. एकं दत्तं भगिनि
हसने. आं भगिनि,
अर्थः तु दत्तं. सप्तमी विभक्तिरूपाणि सर्वाणि सप्तमी विभक्तिरूपाणि एव स्वीकरोतु.
आं भगिनि,
हसने. हस् इत्युक्ते किं? हसने, तदेव. अस्तु, धन्यवादः भगिनि.
धन्यवादः.
महेश महोदय अग्रिमं करोतु.
अहम् इच्छामि, आवाम् इच्छावः, वयम् इच्छामः. इच्छामि इच्छामि तुवादिगणः इष्टातु.
गणसङ्ख्या किं?
गणसङ्ख्या षष्टिः.
षष्टि वा? षष्टि तु सिक्स्टि.
ओ सा
वदतु.
षट् षट्
षट्. किन्तु षट् किं परिवर्तनं भवति?
षड्.
धातु तु षष्ठः, गणः तु षष्ठः गणः.
करेक्ट्.
पेज् पुटसङ्ख्या किं तत्र?
उसको क्या बोलते हैं, प्रथमा द्वितीया तृतीया?
तत्तु अहं न जानामि महोदय. ओर्डिनल् भाषायां कथं वदामः? अहं बहु किमपि
किमपि
एकं तत्तु भवितुम् अर्हति किमपि संज्ञा, किन्तु तत्तु न जानामि महोदय. अहं ओर्डिनल् इत्युक्ते किं न जानामि.
शब्दमञ्जर्यां पृष्ठसङ्ख्या 79. They have given the same name, took for cardinals and ordinals. Sankhya Shabdaha. And Sankhyeya Shabdaha. Okay, there is a slight difference. Cardinals they call Sankhya Shabdaha and ordinals Sankhyeya Shabdaha.
Sankhyeya Shabdaha, Sankhyaya Shabdaha. Tadeva. Astu. सो गणः किं महोदय, पुनः वदतु. सङ्ख्येय ओर्डिनल् इत्युक्ते सङ्ख्येय एव द्रष्टव्यम् एकवारं. षष्ठः गणः
षष्ठः पूर्णीसङ्ख्या इति नाम.
पूर्णीसङ्ख्या वा?
पूर्णीसङ्ख्या इति नामकरण.
पूरणी. किन्तु र तु रकारयोग अकार न?
रकारयोग अकार.
पूरणीसङ्ख्या. अस्तु महोदय, उत्तमम्.
अहं कुत्रापि लिखितवान्
पूरणी संख्या उत्तम धन्यवादः महोदय अस्तु षष्ठः गणः गणस्य नाम किम्
षष्ठः गणः गणस्य नाम किम् तुदादिः गणः परस्मैपदी सकर्मकधातु अर्थः इच्छायाम्
औपदेशिकरूपम् एकवारं प्रयत्नं करोतु
औपदेशिकरूपम् इषुम्
इषु इच्छायां कथं वदामः संस्कृतभाषायाम् इषु इच्छायाम् इति
इषु इच्छायां
यदि कोऽपि पृच्छति चेत् इषु इच्छायाम् एकवारमेव वदामः उत्तमं महोदय इच्छा अस्तु अधुना रूपाणि वदतु महोदय वचनानि भिन्नविचनानि
अहम् इच्छामि आवाम् इच्छावः वयम् इच्छामः
मध्यमपुरुषः अस्ति चेत्
त्वम् इच्छसि युवाम् इच्छतः यूयम् इच्छथ
प्रथमपुरुषः अस्ति चेत्
सः इच्छति तौ इच्छत इच्छतः ते इच्छन्ति
उत्तमम् उत्तमं धन्यवादः महोदय अग्रिमं कविता भगिनी करोतु
आं भगिनि अहं पिबामि
पठतु भगिनि रूपाणि कानि
पिबामि
अहं पिबामि अनन्तरम्
आवां पिबा ऐ एम् जस्ट् ट्रैङ्ग् टु ओपन् अष्टाध्यायी आवां पिबावः एण्ड् वयं पिबामः पिबामि इति शब्द धातुरूप पा संस्कृत अर्थः पाने
संस्कृतभाषायाम्
अर्थः पाने
इत्युक्ते किं पापाने कथं वदामः पापाने इति
पापाने आङ्ग्लभाषायाम् अर्थः टु ड्रिङ्क् गणः भुआदिः परस्मैपदी सकर्मकः क्रिया लट् लकारः प्रथमपुरुष एकवचन पदम् अस्ति
किं पदं किं
पदं किं
किं पदं विच् विच् वर्ड्
पिबामि
पिबामि प्रथमपुरुष अस्ति वा
I'm sorry, Uttama Purusha. Aham Pibami, I drink. Uttama Purusha.
Uttama Bhagini. Astu, Ekam Vadani Atra, Dhatu Vishaye, Pa Dhatu Vishaye, Yatkim Api Sasyani Asti, Vanaspati Asti, Ekam Anya Sanya Asti, बहूनि रूपाणि तत्र दत्तं संस्कृतभाषायाम् इत्युक्ते बहवः संज्ञाः सन्ति बहवः संज्ञा तु न बहु किं महोदय स्त्रीलिङ्गरूपं किं बहवः बहुत्र
बहूनि
बहुनी तु नपुंसकलिङ्गं न
नपुंसकलिङ्गं बहुनि
श्रीलिङ्गं किं बहूनि रूपाणि बहूनि संज्ञा इति अहं सेङ्ग् संज्ञाः बहूनि संज्ञापदानि सन्ति किमपि किमपि विषये किमपि वस्तुविषये संस्कृतभाषायां बहूनि संज्ञापदानि सन्ति इत्युक्ते किं कोई भी एक वस्तु के लिए बहुत सारे संज्ञापद होते हैं संस्कृत में किमर्थम जिसको उस चीज से जो भी अनुभव हुआ वो अपनी धातु उस धातु को लेके उसका एक संज्ञा नाउन पदम बना सकता है दैट इज द ब्यूटी ऑफ संस्कृत आप भी बना सकते हैं जब आपका ज्ञान बढ़ जाएगा आप भी कभी भी दैट इज वाई संस्कृत में डिक्शनरी बनाना असंभव है विद ऑल द वर्ड्स असंभव है क्योंकि आपके पास हर व्यक्ति के पास हर पंडित के पास ये शक्ति है कि वो उसमें जितने भी बढ़ा सकते हैं उनके अनुभव के ऊपर रहता है अत्र एकम उदाहरणं वदामि किमपि वनस्पति अस्ति चेत् सस्यानि किमपि सस्यम् अस्ति चेत् सस्यं वनस्पति इत्युक्ते किं वृक्ष अस्ति चेत् किमपि एनी प्लांट एकं संज्ञापदम् अस्ति पादपः पादपः इत्युक्ते किं वृक्षः वा सस्यं वा पादपः कोई भी पौधे का नाम प्लांट का नाम पादपः संस्कृतभाषायाम् इत्युक्ते किम्
आपने बताया का जो अपने पैरों से पानी पीता है
हाँ पादपः तदेव पाद इत्युक्ते पैरों से पह अत्र तु पा धातु पह आयाति एव पादपः उत्तमं धन्यवाद भगिनी अस्तु अस्तु शिवरूपा भगिनी अग्रिमं पठतु
भगिनी विशेषाभ्यासः
इत्युक्ते किम्
विशेष रहता है जो कर्म पद सॉरी क्रिया पदम है सो उसका बहुवचन और वो सब विशेष रूप में रहता है
बहुवचन नहीं जो भी धातु अभी ये धातु की बात हो रही है तो कोई भी क्रिया जो धातु से क्रिया पदम निकलते हैं जैसे लिख से लिखती हो गया
yes, भगिनी
तो क्रु से
करोति
करोति किंचित भिन्न अस्ति न किंचित विशेष पदम अस्ति
आम भगिनी
अत्र तु विशेष अभ्यासः विशेषाभ्यासः इत्युक्ते धातुतः कथं कानि रूपाणि निष्पन्नं भवति ते भवन्ति ते दत्तानि अत्र
ओके भगिनि
पठतु एकवारं
विशेष अभ्यासः धातुरूपं विशेषपं जाता है एग्जाम्पल् करोति एकवचन एकवचन प्रथमपुरुषम् अस्ति कुरुतः
प्रथमपुरुषः
प्रथमपुरुषः एकवचनपदम् अस्ति एकवचनक्रियापदम् अस्ति कृ धातुरूपम् अस्ति दुक्रुन् करणे इति अर्थः अस्ति पदस्य तनादिः गडः उभयपदि सकर्मकक्रियापदम् अस्ति कुरुतः प्रथमपुरुष द्विवचन अस्ति कुर्वन्ति प्रथमपुरुष बहुवचन क्रियापदम् अस्ति
उत्तमं सर्वाणि रूपाणि एकवारं पठतु भगिनि
आं भगिनि लट्लकार करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुरुत करोमि कुर्वः कुर्मः
लघुवाक्यानि रचयतु
आं भगिनि सः विद्याभ्यासं करोति ते सारी तौ विद्याभ्यासं कुरुतः ते विद्याभ्यासं कुर्वन्ति त्वं विद्याभ्यासं करोषि युवां यूयं विद्याभ्यासं युवां विद्याभ्यासं कुरुतः यूयं विद्याभ्यासं कुरुत अहं विद्याभ्यासं करोमि वयं सोरि आवां विद्याभ्यासं कुर्वः वयं विद्याभ्यासं कुर्मः
उत्तमम् उत्तमं भगिनि तदेव कृ धातुतः डुक्रङ्करणे तनादिगणे तनादिगणसङ्ख्या किं भगिनि
गणसङ्ख्या मालूं नै भगिनि
तत्र दत्तमेव भगिनि
गणसङ्ख्या
बिफोर् द
क्रु ओके भगिनि ओके भगिनि
प्रथमसङ्ख्या तदेव प्रथमसङ्ख्या किम्
प्रथमसङ्ख्या पूर्णः अष्ट पूर्ण
न न पूर्ण न केवल अष्ट एट् ओन्लि जीरो इत्युक्ते एट् ओन्लि न
ओके ओके भगिनि अष्ट अष्टविंशतिः
हा सो गणसङ्ख्या किं गणसङ्ख्या अष्टमः गणः
अष्टमः गणः
अष्टमः किं रूपं किं पूरणी सङ्ख्या यथा महोदय उक्तवान् पूरणी सङ्ख्या किम् अष्टमः अष्टमः इत्युक्ते किम्
एय्थ् ओके
एय्थ् गण
अष्टमः अष्टमः ओके अष्ट इस् एय्थ् अष्टमः इस् एय्थ्
एय्थ् इत्युक्ते अष्ट अपि अष्टौ एकम् अन्यरूपम् अपि अस्ति अष्टौ अपि एय्त् एव सङ्ख्या एव
ओके ओ किदर् उपयोग अष्टौ किदर् उपयोग
न न सेम् एस् एय्त् सेम् एस् एय्त् जस्ट् अ भिन्न रूपं दो रूप है एय्त् के नंबर आठ के दो रूप पाए गए हैं संस्कृत में अष्ट अपि
अष्टौ अष्टामः
न अष्टामः न अष्टमः एय्त् अष्टमः पुटसङ्ख्या किं शब्दमञ्जर्यां पश्यतु भगिनि शब्दमञ्जर्यां पश्यतु पुटसङ्ख्या हा कोऽपि वक्तुम् इच्छति वा पुटसङ्ख्या किं तत्र नव भगिनि नवसप्ततिः
अष्ट अष्टौ अष्टमः अष्टमी अष्टमम्
अष्टमं दीर्घ वा ह्रस्व वा किञ्चित्
आं भगिनि आं भगिनि अष्टमम् अष्टमी अष्टामः
अष्टामिनो अष्टमी
अष्टमी
यथा वयं तिथि वदामः अष्टमी
नवमी
नवमी अष्टमी किन्तु गण तु पुंलिङ्गं पदम् अस्ति
आं भगिनि
गणसङ्ख्या किम् इत्युक्ते अष्टमः गणः
अष्टमः गणः
कृ धातु
अष्टमः
गणस्य नाम किं भगिनि
अष्टमस्य नाम गण नाम कृ
गणस्य नाम
गणस्य नाम कृ अस्ति
न न न अष्टमः अष्टमगणस्य नाम किम्
अष्टमः
तनादिः
नाम किं अष्टमगणस्य नाम किं
तनादिः
किमर्थं तनादिः किमपि धातु यत् अस्ति तत् स्वीकृत्य गणस्य नाम एव अस्ति. प्रथमधातुतः नाम अस्तु. उत्तमं भगिनि, वयं तु जानीमः. अस्तु, अग्रिमं किं दीप्शिका भगिनी करोतु एकवारं, प्रयत्नं करोतु.
शृणोति, शृणोति एकवचन, शृणुतः द्विवचन, शृण्वन्ति बहुवचन. धातु श्रु कैसे टाइप होता है? श्रु टाइप नहीं हो रहा हमसे.
हाँ, सो कैसे करेंगे यदि श्रु वयम वयम न जानामे. अत्र तु धातु किम एकम उहामेव कुर्मः, किन्तु किम टाइप कुर्मः अत्र पूर्णतया पूर्ण पदमेव टाइप करोतु भगिनी. लेक्सिलोगो मध्ये शृणोति इति टाइप करोतु. लेक्सिलोगो मध्ये करोतु भगिनी.
शृणोति हमने किया तो वो वाला श्र आ जाता है, ऋषि वाला. वो ऋषि का श्र आ गया, श्रु.
हाँ,
करो तो सही है. उसमें आप जाएंगे और रूप देखेंगे तो उसमें ये वाला दिखेगा जो इधर प्रिंटेड दिख रहा है.
ओके 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 ओके.
नहीं, लेक्सी लोगो में आपको वो ऋषि वाला र नहीं आता टाइप करना.
ऋषि वाला आ गया पर हाँ. ये श्रुणोति में तो ये शक्कर वाला है
ना भगिनी. ना भगिनी, श्रुणोति ऋषि वाला है.
नो भगिनी, इट इज देयर, द लेटर इज देयर भगिनी, बट व्हेन आई कॉपी पेस्टेड
इट, ऋषि में दोनों आ जाते हैं. अस्तु अस्तु अस्तु. हाँ 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 ना भगिनी टाइप. अच्छा, यू आर टॉकिंग अबाउट द शकार एव, नॉट द रूप.
हाँ, अभ्यास पुस्तिका में तो शक्ष वाला शकार लिखा है ना.
एस एच करो तो अपने आप आएगा वो. एस एच लगाओ.
हाँ, पर अब हमने वो ऋषि वाला र एंटर किया तो वो आ गया है. श्रू श्रू में
नो, यू फर्स्ट हैव टू टाइप द एंटायर क्रियापदम श्रुणोति. बिकॉज अभी तो हम लोग केवल गैस कर रहे हैं कि श्रु होगी धातु. क्या मालूम होगी नहीं होगी, इसीलिए वो पूरा पद को टाइप करो लेक्सिलोगो में. पूरा का पूरा पद लेके जाके अष्टाध्यायी में उसको ढूंढो.
हाँ, तो आई टाइप्ड एस एच तो उससे श तो आ गया. पर उसके नीचे का र कैसे आएगा?
Bhagini, I think the spelling is like this, Bhagini. S-R-N-O-T-I. Type it S-R-N-O-T-I in Sanskrit dictionary. And left side you are getting the exact word, Bhagini.
That also.
Capital S.
S-R mein sa mein ra aa raha hai.
Did you type it in dictionary mein, Bhagini? S-R-N-O-T-I. I got it.
Achha, Sanskrit dictionary you are typing.
Yes,
dictionary you are typing. Okay.
Yes. No, no, Lexi logo. Ek nimesha bhagini. Lexi logo madhye eva karotu bhagini. Kim artham? Tena abhyasena.
I tried it bhagini, but when I copy pasted it, the letter shro, it is not showing in Ashtadhyayi.
Bhagini, shrunotu bhagini. Ekavaram shrunotu. Astu. किं कुर्मः भगिनि, यू हेव् टु लर्न् टु टैप् इन् लेक्सि लोगो अभ्यासेन एव. ऋकार कथम् आयाति?
इट्स् देर् भगिनि, द लेटर् इस् देर् बट् वेन् ऐ कापि पेस्ट्.
भगिनि शृणोतु, भगिनि शृणोतु, किं वदामि, शकार तु आयाति एस् एच्, शङ्कर शकार, तालुशकार आयाति श. अधुना प्रश्न उदेति, कथं ऋषि ऋकार कथम् आयाति इति एकं प्रश्न उदेति. सो एकम् उपायं किं, अधोभागे कीबोर्ड मध्ये करोतु. कीबोर्ड दत्तमेव, तत्तु एकम् उपायम् अस्ति. अन्य उपाय किम्? अधो पुनः अधोभागे गच्छतु, पुनः अधोभागे पश्यतु. अधो अधो अधोभागे, हा अन्तिम किं दत्तं? टैप् आर्, टैप् आर् ऐ, आल् सर्वाणि किमपि नियमानि तत्र दत्तं, नियमाः दत्तं तत्र. टैप् डेश् आर्, डेश् आर् ऐ,
डेश्
सि यु सि नीचे दिया न दीक्षिका भगिनी, अधोभागे यु गो डैरेक्टलि, दिट् इस् आल् गिवन् इन् लेक्सिलोगो. By practice only you will understand. नीचे सबसे पहले क्या दिया? कीबोर्ड दिया. कीबोर्ड के बाद नीचे नोट, तदनन्तरं instructions. पठतु एकवारं भगिनी, प्रयत्न करोतु एव. हा तत्र दत्तं टैप् डेश् आर् दत्तमेव,
डेश् आर्
हा करोतु एकवारं करोतु, पश्यतु कं किं किम् अभवत्. यदि अहं टैप् डेश् आर् टैप् करोमि किम् अभवत् इति करोतु एकवारं. शकार पूर्णतया अस्ति चेत् किम् अभवत्? श अ अस्ति चेत् किम् अभवत्? वारं वारं प्रयत्नेन एव अवगतम्. अत्र किं टैप् करोमि? एस् एच् डेश् आर् करोतु एकवारं, किम् अभवत्? शैलजा भगिनी किम् अभवत् तत्र? एस् एच् डेश् आर् किम् अभवत्?
यस् ऐ गोट् द लेटर् फार् एस् श भगिनी, ऐ एम् ट्रैङ्ग् इट् इन् द कीबोर्ड् यूसिङ्ग् द इन्स्ट्रक्षन्स्.
एस् एच् डेश् आर् किम् अभवत्? हा कोऽपि वदतु.
डेश् आर् के बाद् वो आ रहा है उसमें, क्या बोलते हैं उसको, वो ऋषि वाला, वो क्या बोलते हैं उसको हम लोग, र बोलते हैं ना,
हाँ तो
क्षत्रिय वाला, नहीं वो नहीं,
ना
र नहीं आया.
उसको ऐसे बोल सकते हैं क्या भगिनी के जोड़ रूप र?
रेफ, एकम तो रेफ अस्ति, एकम तो रु अस्ति. रेफ इत्युक्ते किम्? सरलमेव रेफ. एकं तु रेफ किं व्यञ्जनमस्ति, ऋकार एकं स्वरः अस्ति. अत्र स्वर अस्ति श्र. लेक्सिलोगो मध्ये कथं कथं कुर्मः? एस् एच् डेश् आर् करोतु, किम् अभवत्? श्रु एव आयाति, तदेव वयं शृणोति, पश्यतु शृणोति. तदनन्तरं शिफ्ट् एन् ओ टि ऐ शृणोति, पूर्णतया सर्वम् आयाति. कापि करोतु, तदनन्तरम् अष्टाध्यायी मध्ये प्रेषयतु, तदनन्तरं सर्वम् आयाति. अवगतं भगिनि? सर्वे सर्वे अवगतं वा?
नहीं आया हमारा तो.
अस्तु श्रु धातु, हाँ शृणोति कथम टाइप कर. अस्तु स्क्रीन शेयरिंग मध्य करूंगी
भगिनी. लेक्सिलोगो से जैसे आपने कहा वैसे टाइप करने के बाद वो ऐसा ही दिखता है जैसा अभी प्रिंटेड बुक में है, बट जब कॉपी पेस्ट कर रही हूँ मैं अष्टाध्यायी में तो श्रु वो दूसरा वाला.
Exactly, that's what I mean. Agreed, I was trying
agreed,
to say.
Agreed, but that is what I'm trying to say to you, that you cannot assume you know the dhatu just by looking at the kriyapadam. See, if you only look at shrunoti given here in the printed book, then you will assume that shru is the dhatu, but that's not the case. But you don't, what if there is another dhatu like that, that will take you somewhere else? You don't want to go into the wrong path. So you please type the full word exactly as it is given. Your first attempt should be that. That's all I teach you. Astiva? Screen sharing madhye, screen sharing madhye, screen sharing madhye, aham preshayami aduna. Aduna kim dattam shru. So, S, H. Kim abhavat talu shakara ayati. Tadanantaram katham jani maha ekam upayam tu atra asti. Ru asti. Shru. Shru ayati. Tadanantaram shift n karotu. Kintu atratu aham sh ru. Shru. Artham atran abhavat. H. SH, aham kim, I've never used this keyboard actually. So what do I do? Aham adho bhage atra dattam. Type dash R, api dash RI. So dirgh, rrr. Prasva. Let's try. SH dash R. अभवत् श्रु तदनन्तरं शिफ्ट् एन् णकार आयाति तदनन्तरं लेटर् ओ तदनन्तरं टि तदनन्तरम् ऐ शृणोति अधुना किं कुर्मः पूर्णतया कापि कुर्मः अष्टाध्यायी मध्ये पेस्ट् अधुना अत्र आयाति नौ वी नो फार् शुर् अण्टिल् देन् यु आर् सिम्प्लि गेस्सिङ्ग् अवगतं वा
बट् मेरा तु नहीं आया
नो यू डिड व्हाट आई डिड भगिनी
हां डैश आर आई टाइप्ड
हां डैश आर करो तो अत्र दत्तं सर्वं ओके सर्वं दत्तं
ये डैश आर
डैश आर ओनली वन डैश इज देयर
हां डैश एंड लिटिल आर ना
Little to little, all typing is little only unless you do capital.
पता नहीं हमारे में ऐसा क्यों आ रहा है।
अस्तु, हाँ, श्रणोति, हाँ, अष्टाध्यायी मध्ये अवगतं वा दीपशिखा भगिनी?
हाँ, अष्टाध्यायी।
हाँ, पठतु, कीदृश धातु अस्ति अत्र? पठतु एकवारम्।
हाँ। श्रु श्रवणे भवादिः परस्मैपदी सकर्मकः अनिट्
श्रु श्रवणे इत्युक्ते किम्
श्रु श्रवणे श्रवणे इत्युक्ते टु हियर् टु लिसन्
श्रवणे
श्रवणे
अस्तु गणसङ्ख्या किम्
गण संख्या ए एक
हाँ एक इत्युक्ते
जीरो वन है ना
प्रथमः गणः
प्रथमः हाँ प्रथमः गणः
गणस्य नाम किम्
गणस्य नाम भवादिः
भवादिः तु न
भवादिः
अस्तु सर्वाणि रूपाणि पठतु भगिनि एकवारम्
सर्वाणि रूपाणि शृणोति लट् लकार शृणोति शृणुतः शृण्वन्ति शृणोषि शृणुतः शृणुथ शृणोमि शृण्वः शृणुवः शृण्मः शृणुमः
लघुवाक्यानि वदतु
शृणोति सः शृणोति
कम शृणोति किम शृणोति
किम शृणोति क्या सुनता है किम शृणोति क्या सुनता है सह संगीत शृणोति
संगीत कीदृश पदम
संगीत संस्कृत है कि नहीं
कीदृश पदम संस्कृत भाषायां वदतु भगिनी
संगीत तो न जानामि
गीतं गीतं शृणोति
गीतं श्लोकं पाठं किमपि
अच्छा अच्छा हाँ
वाक्यं
वाक्यं अच्छा
स्वरं किमपि व्यञ्जनं हाँ हाँ वदतु एकवारं
सः गीतं शृणोति
गीतं विषये किं किञ्चित् वदतु कीदृशपदमत्र
गीतं कीदृशपदं न जानामि टैप् करना पडेगा ना मेरे को
न न न विभक्तिरूपं किम्
अच्छा
कीदृशपदमत्र
ओके ओके अच्छा विभक्ति अच्छा हाँ गीतं द्वितीय विभक्ति द्वितीय विभक्ति का वो फर्स्ट वाला वन टू पॉइंट वन
वदतु भगिनी संस्कृत भाषा
2.1
आई कैन सी दीपक ब्रेन इज फ्राइड टुडे वदतु भगिनी
1, 2, 3 क्या है वो भूल गए प्रथम वचन नहीं है वचन नहीं है वो और
एक वचनम
वचन है एक वचन है अच्छा हाँ एक वचन एक वचन द्विवचन बहुवचन हाँ एक वचन
आज दीपशिखा भगिनी को सीनियरिटी पॉइंट्स देना पड़ेगा उत्तमं भगिनी हाँ पुनः वाक्यं वदतु
सः गीतं शृणोति
उत्तमं
सः तौ ते तौ गीतं शृणुतः ते गीतं शृण्वन्ति त्वं पाठं शृणोषि युवां पाठं शृणुतः यूयं पाठं शृणुथ अहं पाठं शृणोमि आवां पाठं शृणुवः वयं पाठं शृणुमः
रूपद्वयम् अस्ति
रूपद्वयम्
अस्ति उत्तमं भगिनि धन्यवादः अस्तु पापाजी वक्तुमिच्छति अत्र अग्रिमम्
बट साइड बटन दबाएंगे हाँ अनम्यूट करिए हाँ रेड वाला होगा ना बटन आपका स्क्रीन में नहीं आ रहा एक मिनट देख
अहम अभी ना करते शक्ना में यात्रा पापा जी वक्तुम् इच्छति वा अग्रिमम् पुस्तके दत्तं ददाति
ददाति
कीदृशपदम् अत्र
ददाति
ददाति
दत्ति
ददाति एकनिमिष स्क्रीन् शेरिङ्ग् मध्ये प्रेषयामि. हा अत्र अत्र अस्ति पापाजि. हा पश्य
ददाति.
अच्छा यच्छति आयाति एकनिमिष तद् ददाति एव क्षम्यताम् यच्छति तु ददाति. दाधातु हा अत्र ज्योत्यादिगणे एव अस्तु. हा कीदृश कीदृशधातु पापाजि धातु किं
धातु डिटेल्
ज्योत्यादि.
हा जुहोत्यादिः अपि
उभयपदी
उभयपदी
सकर्मकः
अर्थकः दुदायि
टु गिव् टु प्रोवाइड
संस्कृतभाषायां दुदायि दाने इति. कर्सर् पश्यति वा मम कर्सर्
दुदायि दाने
दुदायि दाने दुदायि
दाने
दुदायि किं रूपम् औपदेशिकरूपं मूलरूपं दुदायि तदनन्तरं लौकिकरूपं किं दा. हा गणसङ्ख्या किम् अत्र
03 0010.
हा हा इत्युक्ते किं तृतीयः गणः. तृतीयः गणः उत्तमं. हा लट् लकारे उभयपदी अस्ति अधुना तु परस्मैपदी रूपाणि. पठतु एकवारं पापाजि.
ददाति दत्तः ददति ददासि दत्तः दत् ददामि दद्वः दद्म्यः
दद्मः. उत्तमम् उत्तमं. लघुवाक्यानि एकवारं प्रयत्नं करोतु. रामः
अहं रामः रामः फलं ददाति.
हा रामः फलं ददाति. अग्रिमं रामः
दत्तः वद.
हा रामौ
रामौ
फलं
फलौ दत्तः.
उत्तमं. बहुवचनं
रामाः फलानि ददति.
ददति किञ्चित् विशेष अस्ति अत्र ददति बहुवचनरूपं किं ददति.
ददाति से ददति हो गया.
किञ्चित् विशेष अस्ति. हा त्वम् अस्ति चेत् पापाजि.
ददासि
लघुवाक्यं लघुवाक्यं त्वं फलं
त्वं मिष्ठान्न ददासि.
मिष्ठानम्
अच्छा मिष्ठानं
सकर्मक इत्युक्ते किं कर्मपदं तु स्वीकरोति.
त्वं मिष्ठानं ददासि
पितुः मनसि मिष्ठान सर्वदा तिष्ठति तत्र. उत्तमम् उत्तमम् उत्तमं
ब्राह्मण मोदकप्रियम्
उत्तमं. हा अग्रिमं द्विवचने
दत्तः तौ
तौ तु न मध्यमपुरुष
त्वं युवां युवां फलं दत्तः.
तदनन्तरं
यूयं फलानि दत्त
दत्त. किञ्चित् भिन्न अस्ति दत्त
दत्त.
उत्तमपुरुष
अहं फलं ददामि वायां हरं दत्वा वयम्
अहम् आवाम्
आवाम् आवाम् फलं फलानि दद्वः
दद्वः उत्तमं
दद्वः वयं फलानि दद्मः
दद्मः उत्तमम् उत्तमं किञ्चित् विशेषरूपाणि सर्वाणि रूपाणि किञ्चित् विशेष अस्ति हा दा धातु
जुहोत्यादिगण
न कर्मपदं तु किमपि वचनं भवति भवितुम् अर्हति अत्र तु कर्तृपदम् अपि क्रियापदं मेलनम् आवश्यकं कर्मपदं तु किमपि अस्ति फर्क नहीं पड़ेगा वाक्य के व्याकरण में कर्म पदम तो एक अमान्य कर्तरी प्रयोगे कर्तरी प्रयोगे इत्युक्ते किम् यदा कर्तृपदम् अस्ति इत्युक्ते किम् कर्तृपदं मतलब कोई करने वाला इत्युक्ते किं प्रथमा विभक्ति पदम् अस्ति चेत् क्रियापदं वाक्ये मेलनम् आवश्यकम् दिट् हेस् टु मेच् एकं वचनं कर्तृपदम् एकवचनम् अस्ति चेत् क्रियापदम् अपि एकवचनम् अस्ति कर्तृपदम् अहम् अस्ति चेत् उत्तमपुरुषक्रियापदम् आवश्यकं कर्तृपदं त्वम् अस्ति चेत् मध्यमपुरुषक्रियापदम् आवश्यकम् एकवचनकर्तृपदम् अस्ति चेत् एकवचनक्रियापदम् आवश्यकं बहुवचनकर्तृपदम् अस्ति चेत् बहुवचनक्रियापदम् आवश्यकं कर्मपदं तु भिन्न किमपि भवितुम् अर्हति मैने आपको एक एक पुस्तक दिखाई या दस पुस्तके दिखाई हिन्दीभाषायां किञ्चित् भिन्न अस्ति हिन्दीभाषायां हिन्दीभाषायां किम् अभवत् मैं एक पेड़ देख रही हूँ मैं बहुत सारे पेड़ देख रही हूँ आप पेड़ देखिए आप दस पेड़ देखिए हाँ समान एव लट लट रूपाणी तो समान एव हिन्दी भाषायां अपि उत्तमम् उत्तमं धन्यवाद पापा जी अस्तु अग्रिमं किम् अस्ति अत्र हा सुधा भगिनी वदतु अग्रिमम्
आं भगिनि
हा
जानाति
जानन्ति जानाति जानाति रूपं किं
जानाति इति प्रथमपुरुष एकवचनरूपं
किं लकार किं भगिनि
लकार इति लट् लकारः
जानाति सि लेक्सिलोको मध्ये जानाति प्रथम तु वयं टैप् कुर्मः अत्र तदनन्तरं कापि कुर्मः अष्टाध्यायी मध्ये प्रेषयतु तदनन्तरम् आयाति हा अस्तु पठतु भगिनी
न्या इति दातु नवमः गणः क्रियादिगणः परस्मैपदि सकर्मकधातु अर्थः ज्ञा अबोधने अवबोधने अवबोधने त्रीणि रूपाणि रामः पाठं जानाति रामौ पाठं जानीतौ जानीतौ
अत्र
जानीतौ
तौ अस्ति अत्र भगिनि पश्यतु
जानीतः जानीतः
पुनः वदतु वाक्यं पुनः वदतु द्विवचने
रामौ पाठं जानीतः रामाः पाठं जानन्ति जानासि त्वं पाठं जानासि यूयं युवां पाठं जानीतः यूयं पाठं जानीथ अहं पाठं जानामि आवां पाठं जानीवः वयं पाठं जानीमः
उत्तमं तदेव ज्ञाधातु
ज्ञाधातु
हा क्रियादिगणः क्रियादिगणः कः नवमगणः क्रियादिगणः उत्तमम् उत्तमं शैलजा भगिनी अग्रिमं करोतु
आं भगिनि शक्नोति इस् दट् मीन्स् लैक् इस् बि एबल् टु भगिनि
न न न तत्तु सत्यं किन्तु अष्टाध्यायी मध्ये पठतु भगिनि किं दत्तम्
आं भगिनि शक् धातु
गणसङ्ख्या किं
गणसङ्ख्या चत्वारि
इत्युक्ते
फोर्त् वन् शक्
भगिनि फोर्थ् इत्युक्ते किं संस्कृतभाषायां
शक्मः न सोरि चत्वा
भगिनि पुटसङ्ख्या किं
सिक्स्टि यस् भगिनि ऐ गोट् दट्
फोर्थ् कोऽपि जानाति वा
चत्वारः
गणः अपि
चत्वारः
पूरणीसङ्ख्या
चतुर्थी
चतुर्थी तु न भगिनि
चतुर्थः
अपि तुरीयः अपि तुर्यः सर्वे समानार्थकपदानि सन्ति तत्र चतुर्थः गणः इत्युक्ते फोर्थ् गण तुरीयः गणः इत्युक्ते फोर्थ् गण तुर्यः गणः अपि इत्युक्ते फोर्थ् गण भिन्नानि पदानि दत्तं तत्र चतुर्थः तुरीयः तुर्यः अवगतम् शैलजा भगिनी शब्दमञ्जर्यां पुटसङ्ख्या किम्
ऐ ओपन् इट् भगिनि ऐ गोट् हियर् सो केन् यु प्लीस् रिपीट्
पुटसङ्ख्या किं वदतु एकवारम्
इन् मैण्ड् इट् इस् 77 सो इट् इस् चतुर्थः चतुर्थी चतुर्थम्
भगिनि गणः कीदृशपदं
गणः चत्वारः
न गणः लिङ्गं किं गणः कीदृशपदं
गणः पुल्लिङ्गशब्दः
पुल्लिङ्ग् अस्ति चेत् पुल्लिङ्ग् एव
चत्वारः आं भगिनि सो इट् इस् पुल्लिङ्ग अस्ति चेत् चत्वारः
चत्वारः इत्युक्ते किं फोर् नम्बर् फोर्
यस् भगिनि
किन्तु फोर्थ्
फोर्थ् फोर्थ्
वदतु फोर्थ् किं
चतुर्थः चतुर्थः
अपि
चतुर्थः
अपि
चतुर्थः तुरीयः तुर्यः
तदेव
आल् द त्री ओके देर् आर् त्री वर्ड्स् फार् चतुर्थी चत्वारः
यु हेव् टु कीप् ओपनिङ्ग् योर् शब्द मञ्जरी एण्ड् बिकमिङ्ग् फमिलियर् वित् वाट् इस् गिवन् देन् यु हेव् टु स्टार्ट् टु थिङ्क् ओ हौ डस् इट् वर्क् ओ गणः इस् पुंलिङ्गम् So I should only look at Pumlingam right now and make my sentence or make my phrase. Varam varam karotu bhagini. Then you will become familiar with the book. Then immediately you know where to look, what to say, and immediately you will be able to say it. But first time, second time when you are looking, it will be very confusing. What word is it? What does it mean? All of these. So many numbers for four are there. Look.
चत्वारः चतस्रः चत्वारि चतुर्थः चतुर्थी चतुर्थं तुरीयः तुरीया तुरीयं तुर्यः तुर्या तुर्यं. How many words for four are there?
How do you know which one to use? एकवारं प्रयत्न करोतु स्वस्य समये.
भगिनी बट् शक् इति चतुर्थी गणः नास्ति, अति पञ्चमः गणः.
हा उत्तमम् उत्तमं भगिनि, धन्यवादः धन्यवादः भगिनि, तत्तु सत्यं. धन्यवादः
भगिनि.
हा गणसङ्ख्या किं?
क्षम्यतां भगिनि, ऐ डिड् नाट् सी दट्.
बट् थैंक यू शैलजा भगिनि, यु हैव ओपन्ड् अप् द चत्वारः इन् त्री डिफरेंट फॉर्म्स फॉर दट्. थैंक यू.
न एकवारं यदि पठामः तदनन्तरम् अग्रिमं समये अपि किञ्चित् मनसि तिष्ठति, ओ बहूनि रूपाणि सन्ति तत्र, बहु क्लिष्टा जाता इति किमपि. उत्तमं. हा शक् धातुतः वदतु भगिनि.
षष्ठः षट् धातु पुल्लिङ्गशब्दः अस्ति चेत् षष्ठः
गणः. षष्ठः किं?
षष्ठः गणः.
षष्ठः तु नास्ति भगिनि, अत्र दत्तमेव. लुक्
भगिनि, इट् इस् फैव्, नो फिफ्त् वन् नो भगिनि, सो ऐ हेव् टु टेल् लैक् पञ्च, या पञ्च, दिस् पञ्चमः
नम्बर् फैव् अत्र फैव्.
आं भगिनि, आं भगिनि, पञ्चमः गणः.
पञ्चमः किं? पञ्चमः गणः
सप्तविंशः. सो द नेक्स्ट् नम्बर्,
न यु डोण्ट् वरि अबौट् देट्, यु जस्ट् डु.
ओके भगिनि, ओके, सो इट् इस् पञ्चमः गणः. शक् धातु अर्थः शक्तौ, एण्ड् वाट् इस् द फस्ट् वन् भगिनि? शक्तं, नो
शक्लृ शक्लृ शक्लृ, तत्तु औपदेशिकरूपम् अस्ति, किञ्चित् क्लिष्टा जाता उच्चारणसमये. शक्लृ लृ अस्ति तत्र, लृ
षड्र षड्र शक्तौ स्वादिः गणः, परस्मैपदी अकर्मकः लट्लकारः शब्दः, परतमपुरुषः एकवचन एकवचनं.
शक्नोति इति लट् रूपं किं? शक्नोति
शक्नोति भगिनि.
शक्नो
लट्लकारः एकवचनं.
उत्तमं, प्रथमपुरुष शक्नोति. लघुवाक्यं वदतु.
शक्नोति, सो अर्थः भगिनि, इस् इट् what is the meaning bhagini?
Atra shaktau
shakno.
shaktau
shaktau
atra artha bhagini atra shaktau,
so, shaktau. The English meaning is
to be able to see, to be able to do anything you have to have that power to be able to do it, no, that is what that power means. That ability, you have to have that power, power of knowledge, power of strength, whatever power. Then only you are able to do something. That is why power is given in English. Kintu shakti ikaranta shabda asti chet saptami tu shaktau, bhumi bhumau, mati matau iti.
Naam bhagini,
ikaranta strilinga padam asti chet saptami rupam kim?
Saptami rupam
शक्तौ इति इकारान्तपदम् अस्ति अत्र, शक्ति.
आं भगिनि, ह्रस्व इकारान्त.
सप्तमी किं?
शक्नं शक्नोः शक्ने शक्निषु.
कुत्र
इकार? नै भगिनि, सोरि, ऐ एम् लुकिङ्ग्
न न शक्ति. अत्र तु शक् धातु अस्ति, शक्ति तत्र तु एकं संज्ञापदम् अस्ति, अर्थे एव वयं योजयामः अत्र.
Here
shak is a dhatu.
Dhatu form.
You are reading the sanya rupani.
Sanya padam.
We are not dueling. The only reason we are looking at sanya padam here is to understand the meaning.
Because since you said like saptami form. Right, Bhagini. I understand.
Aduna.
Shaknoti. Shaknoti. Shaknutaha. Shaknuvanti. शक्नोषि शक्नुतः शक्नुत शक्नोमि शक्नुवः शक्नुमः रामः पाठं शक्नोति
पाठं शक्नोति पाठं विषये वदतु भगिनि
पाठम् इति शब्दः नपुंसकलिङ्गपदं द्वितीया विभक्ति एकवचनं शब्दः अस्ति
तत् साधु वा अत्र कीदृशधातु पश्यतु एकवारं कीदृश
पाठं पट् पट् धातु भगिनि
न शक् धातु अत्र तु शक् आयाति वाक्ये किं क्रियापदं किं शक्नोति
क्रियापदं शक्नोति पाठं द्वितीया विभक्ति कर्मपदं लघुवाक्यं भगिनि
आयाति भगिनि अत्र पश्यतु कीदृशधातु अस्ति अत्र पश्यतु मम कर्सर् पश्यतु भगिनि किम्
अकर्मकः ओके भगिनि देर् इस् नो कर्मपदम् वाक्यं शुड् नाट् हेव् ए कर्मपदं शक्तिः भगिनि केन् ऐ से शक्तिः संथिङ्ग् लैक् देट्
न भगिनि अत्र तु क्रियापदं शक्नोति अन्य कोऽपि एकं वाक्यं वदतु एकवारं वदतु
फैट्
अन्य कोऽपि अस्ति तत्र
भगिनि इफ् ऐ से ऐ केनाट् होल्ड् ऐ एम् नाट् एबल् टु होल्ड् द बाल् हौ वुड् ऐ से
न एक लघुवाक्यं प्रथमतया वदतु
भगिनि इफ् समवन् सेस् लैक् राम् फैट्स् सो देर् इस् नो नथिङ्ग् इन् द फैट् नो भगिनि सो केन् वि यूस् द वर्ड् फैट्
Bhagini, here we are not working with fight. We are working with the verb shak. Dhatu shak. We are not looking at any other kriyapadam. We are trying to do abhyasa in the word shaknoti from the dhatu shak.
Fight is a kriyapadam, Bhagini. I thought it is something.
Fight is a kriya.
Sarvanam.
Yudha, huh?
Okay, Bhagini.
न अकर्मक अस्ति अत्र इत्युक्ते किम्
कर्मपदम् इन् अ सेण्टेन्स्
नाट् पुट् अ कर्मपदम् इन् द सेण्टेन्स् रामः शक्नोति
रामः पठितुं शक्नोति
लेखितुं शक्नोति किमपि किन्तु कर्मपदं तु अत्र स्वीकरोति पठितुं शक्नोति इत्युक्ते किं महोदय एकवारं वदतु
पढ्ने के लिए
शक्ति है पढ्ने की शक्ति है राम को पढ्ने की शक्ति है
वक्तुं
शक्नोति किमपि
बोलने की शक्ति है
किन्तु अत्र तु केवल रामः शक्नोति तदेव योद्धुं शक्नोति लड़ने की शक्ति है
युद्धं शक्नोति
अपि किमपि किन्तु अत्र तु अकर्मक तत्तु मुख्यविषय किम् अकर्मक इत्युक्ते कर्मपदं न स्वीकरोति तदेव वयं
ब्रेषं शक्नोति भगिनि ब्रित्
सिम्प्लि भगिनी अत्र तु लघुवाक्यं वदतु केवलम्
आं भगिनी सः शक्नोति तौ शक्नुतः ते शक्नुवन्ति
उत्तमम्
अण्ड् मध्यमपुरुषः त्वं शक्नोषि
यूयं शक्नुतः युवां शक्नुतः
शक्नुतः उत्तमम्
अहं
यूयं
शक्नोमि
यूयं शक्नुतः न समीचीनं नास्ति भगिनि कविता भगिनि
ऐ हर्ड् यूयं दट्स् वै
अस्तु अस्तु
यूयं
यूयं
यूयं यूयं शक्नोमि नो सोरि यूयं शक्नुतः शक्नुतः एण्ड् अहं शक्नोमि आवां शक्नोवः नो शक्नुवः वयं शक्नुमः
वयं शक्नुमः उत्तमं तदेव किञ्चित् विशेषक्रियापदं किञ्चित् विशेषधातु एव स्वादिगणे
स्पेशल् इट्स् वी केन् काल् इट् इस् अ स्पेशल् वर्ब् भगिनि
सर्वाणि विशेषाणि सन्ति विशेषाः धातवः अस्ति अत्र करो
इस् इट् समथिङ्ग् लैक्
धातु दा धातु ज्ञा धातु शक् धातु किञ्चित् विशेष अस्ति इति तदेव
भगिनि द विशेष पार्ट् आफ् इट् इस् दट् इट् कुड् टेक् डिफरेण्ट् फार्म्स् दट् इस् द विशेष पार्ट् आफ् दीस्
नाट् इट् कुड् इट् डस् नाट् इट् कुड् इट् डस्
ऑलराइट
एण्ड् दे आर् गिवन् हियर् लट् रूपाणि किञ्चित् भिन्न अस्ति गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छथ गच्छामि गच्छाव इस् नाट् शक्नामि इस् इट् किञ्चित् भिन्न जाता तत्र अपि शक्नुवन्ति शक्नुवन्ति गच्छन्ति तु गच्छन्ति शकन्ति इट् शुड् बिकम् शकन्ति शक्नुवन्ति एकं तु स्वादिगणे अस्ति चेत् किमपि परिवर्तनम् अभवत् तदनन्तरम् अपि विशेष अस्ति अवगतम् अस्तु
आं भगिनि धन्यवादः
अस्तु अस्तु समयपि जातः कृपया पुनः सर्वाणि रूपाणि एकवारं पश्यतु अष्टाध्यायी मध्ये पश्यतु कथं वयं लेक्सिलोगो तः अष्टाध्यायी अत्र किमपि यदि अन्वेषणं कुर्मः कथं कुर्मः सर्वं कृपया एकवारं पुनः स्वस्य समये करोतु कृपया अभ्यासरूपेण अस्ति वा अन्य कोऽपि प्रश्नः अस्ति अत्र अस्तु अस्तु
भगिनि
वदतु
शब्दमञ्जर्यां पुटसङ्ख्या नवसप्ततिः नवसप्ततिः मध्ये प्रथमः शब्दस्य पार्श्वे वामतः स्टार् अस्ति अधः अधोभागे विश्लेषण अस्ति पूर्णप्रत्ययाः इति पूर्णप्रत्यय उपयुज्य आर्डिनल्स् आयाति अतः नामकरणः पूर्णसङ्ख्या
अस्तु अस्तु
अस्ति
पूर्णप्रत्यय एकं प्रत्यय अस्ति पूर्ण प्रत्यय किं तु न जानामि किन्तु
पूर्णप्रत्यय इति एकः प्रत्ययः अस्ति भगिनि
अस्तु अस्तु पूरण पूरण
भगिनि वुड् यू से द वर्ड् पूरणप्रत्ययान्ता एण्ड् दट् दि ऑपोजिट् फेसिङ्ग् एस् हौ वुड् यू प्रनौन्स्
दीर्घ आ अपि एकम्
सो डबल् दि अमौण्ट् आफ् यान्ता
किन्तु अत्र भगिनी संस्कृत अपि आङ्ग्लभाषायां किञ्चित् मिश्रणं दत्तं स्पष्टता न दर्शयति अत्र स्पष्टतया न दर्शयति अत्र किमर्थम् आङ्ग्लभाषायां मध्ये आयाति इत्युक्ते सन्धिविषये किमपि अब न कुर्मः अत्र तदेव विग्रह इत्युक्ते एस् इत्युक्ते अत्र इङ्ग्लिश् अण्ड् संस्कृत इस् मिक्स्ड् सो आफ्टर् दिस् विग्रह समथिङ्ग् एल्स् विल् बी देर् नो एण्ड् देट् विल् हेव् चेञ्ज् दिस् मे बि So that's why you don't normally see this. Your question was, how do you say it? The reason I'm not saying it, I cannot say it will all the time be like this, is because it depends on what comes after it. Usually at the end of a sentence, it will not be like this. But here, because an English word is following, it feels like, oh, it ended like that. You know what I'm saying? It's unclear. It does not allow us to study it carefully or to understand what is going on, but it is a avagraha chinnaha. Usually it will extend the vowel. The vowel that is there,
Sorry, it will extend. Bhagini, I think you mentioned vigraha earlier, and now you mentioned avagraha, so I'm confused.
Avagraha.
अवग्रह एव भगिनी डिड् ऐ से विग्रह क्षम्यतां न अवग्रह एव क्षम्यतां मम दोषः अवग्रह एव अस्तु अवग्रह चिह्न अस्ति अत्र म्यूसिक् मध्ये अपि सङ्गीतमध्ये वयं योजयामः अत्र तान् अस्ति चेत् कोऽपि सिक्ता सङ्गीत Sangeet, if you learn, then this is how they will also say,
Is it Gamakam, Bhagini, in between the...
Gamak is a different Abhushana. You know, you do like, jaise koi bhi ek shabd ko badha ke bolna, Ram.
Haan, that is Gamakam.
So, itne beech mein itne saare swar aa rahe hain. Sarega, Ram. So, what do you write above that re? You just write this S. It means you continue whatever you are saying. Ram, like that.
So it could be anything that is preceding the S. Not necessarily A. Could be E. Anything.
Ha, ha. Swara. Kim api swara, Bhagini?
All right. All right.
Ha, ha, ha. Avagraha chinna ityukte dirghatvam bhavati. यत् यत्किमपि स्वरः अस्ति चेत् तत् स्वरस्य दीर्घत्वं भवति इति
सारी जस्ट गॉट अ फनी पिक्चर इन द माइंड वो आते ना हाइट बढ़ा लो ये दवाई लेकर तो ऐसा हो गया कि इसको इमीडिएट बढ़ा कर देने के लिए
दीर्घत्वं किमर्थं भवति अवग्रह इत्युक्ते इज इक्वल टू व्हाट इन इंग्लिश हैज बिकम अपोस्ट्रोफी सो द मीनिंग इज वेरी It is omitting a certain vowel. Therefore, there is a dirgha. You know what I'm saying? It is indicating a dirgha, but you don't say it. That's why I'm not saying it here. See, when I say I can't, it is can, not. Two N's are there, correct? In English, I'm trying to explain in English what happens. Apostrophe is there. Can't. Why? What does that apostrophe indicate? It means actually it is showing you that it is a longer, something is going on. Correct? But they have cut it short and simply put a apostrophe. But what do you do with that apostrophe? It gives you the knowledge something is there long. Long is there. Kintu, you are not saying it. Why are you not saying it? Because there is a T at the end. That is why in English also nothing ends with an apostrophe unless like some specific words are there ending with S and then you have to put another S so then they put apostrophe. But in general, You will not use an apostrophe at the end of a sentence, no? In English. But what does it indicate? It indicates that there is some length inside it. Something has been cut short. That's why here, although it is given as Purna Pratyayanta, you cannot say Ta.
Bhagini, that will be clarified in the previous page that is there, that is 78th page, last but second sentence, Chaturtha Panchamadhyaya Shabdaha Sarvepi.
Sarvepi. Uttama Udharana Mahavadeya Dhanyavada. Sarve Api Atra. Kavita Bhagini Pashyatu. Sarve Api. A Atra Tu Nasti. A Na Dattam. Kim Dattam? Ekam Chinna Dattam. Kis, kasya Chinnam? Avagraha Chinnam. Avagraha Ityukte Kim? Tatra Ekam Apostrophe Asti. यदि वयं वैदिक संस्कृत पश्यामश्चेत् तत्र तु अवग्रहः नास्ति एव इत्युक्ते आवश्यकं नास्ति संस्कृतभाषायाम् अवग्रहचिह्नं नास्ति आवश्यकं नास्ति मूलसंस्कृतभाषायां तत्तु नास्ति तत्र कालानन्तरं सौलभ्यार्थं Avagrahachinna Ayati. After some time, they found it easier to put some mark there to let people know there was a swara there, something was going on there. Then later on, for ease, they put it, added on into Sanskrit. Otherwise, in original Sanskrit, is not there, and therefore, it is not essential in any Sanskrit. People use it for their convenience. But you cannot take anybody to court and say, why is this... Avagatam? Bhagini?
Bhagini, yes. On page 77, 145, the last line also has this Itya Dayo Pyeva Meva. Is it again a?
Where are you? Page?
Page 77, number 145, the last line. Charamam Itya Dayo Pyeva Meva.
Avagraha eva. So you can use it anywhere because api is there. Api. Iti adayaha api evam eva. All these words have been made into one word by Sandhi. So because there is already a swara, yaha, which becomes by one Sandhi it becomes yo, then there is another swara. Two swaras are there and they are different swaras. So in our language, we usually do not have a tradition of like in some languages, they will say two swaras that are next to each other with a small gap. So in Hawaii. Hum log kaise bolenge
usko? My next question, Bhagini, why can't we write it as two separate words with a space in between?
Because there is a paddhati. This is the paddhati of Sanskrit. Sanskrit bhashayam laghavatvam. Pramukhataha, how to say something in the most brief manner, how to communicate with full clarity in the briefest manner, why you want to elongate. So there are sandhi rules that allow us to do that, and when we talk also it allows us to talk faster. That is the reason. Many languages will combine vowels. Look at English, Hindi, all of them, they combine vowels. Two vowels next to each other, you will get a mixture.
All right, then.
Avagatam. Ashtu. Ashtu. Mira mama. Ashtu. Sudha Bhagini, Antima Shanti Patha Bhagini.
Ambhagini. Om Purnamada Purnamidam पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः श्री गुरुभ्यो नमः हरिः ॐ सर्वं कृष्णार्पणमस्तु
धन्यवादः सर्वेभ्यः नमो नमः नमस्कारः
धन्यवादः भगिनी
धन्यवादः
धन्यवादः भगिनी नमस्कारः